तेजोदग्धानि गात्राणि पाणिनास्य परामृशन् किञ्चित् कृपीटयोनिं तं दिवस्पतिरभाषत।
तेज इति दिवस्पतिः इन्द्रः तं कृपीटयोनिम् अग्निम् कर्मभूतम् तेजसा शाम्भवेन धाम्ना दग्धानि प्लुष्टानि अस्य अग्नेः गात्राणि पाणिना परामृशन् स्पृशंसन् किञ्चित् वक्ष्यमाणम् अभाषत उवाच। भाषतेः द्विकर्मकत्वं हि ब्रूयर्थनिबद्धत्वात् अर्थनिबन्धनेयं संज्ञा इति वार्तिकात्। कृपीटयोनिः ज्वलनः इत्यमरः शतमन्युर्दिवस्पतिः इति च।
प्रीतस्वाहास्वधाहन्त कारैः प्रीणयसे स्वयम् देवान् पितृन्मनुष्यान्स्त्वम् एकस्तेषाम् मुखम् यतः।
प्रीत इति भो अग्ने त्वम् प्रीतः सन् स्वाहाकारः स्वधाकारः हन्तकारः एतैः शब्दैः कृत्वा होत्रुभिः प्रक्षिप्तेन हविषा इति शेषः। देवान् इन्द्रादीन् पितॄन् मनुष्यांश्च स्वयम् प्रीणयसे प्रसादयसि। कथम् एतान् प्रसादयामीत्याह यतः एक एव त्वम् तेषाम् देवादीनाम् मुखमसि।
त्वयि जुह्वति होतारः हवींषि ध्वस्तकल्मषाः भुञ्जन्ति स्वर्गमेकस्त्वम् स्वर्गप्राप्तौ हि कारणम्।
त्वयीति होतारः हवींषि त्वयि जुह्वति अत एव ध्वस्तकल्मषाः स्रस्तपापाः सन्तः स्वर्गम् भुञ्जन्ति। हि यतः त्वम् एक एव स्वर्गप्राप्तौ कारणम्। ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यादि श्रुत्युक्तयागफलस्वर्गप्राप्तौ यागस्य त्वदायत्ततया कारणत्वोक्तेः इति भावः।
हवींषि मन्त्रपूतानि हुताश त्वयि जुह्वतः तपस्विनस्तपःसिद्धिम् यान्ति त्वम् तपसाम् प्रभुः।
हवींषीति भो हुताश तपस्विनः मन्त्रपूतानि हवींषि त्वयि जुह्वतः सन्तः नाभ्यस्ताच्छतुः इति नुम् निषेधः। तपःसिद्धिम् यान्ति प्राप्नुवन्ति यतः त्वम् तपसाम् प्रभुः।
निधत्से हुतमर्काय सपर्जन्योऽभिवर्षति ततोऽन्नानि प्रजास्तेभ्यः तेनासि जगतः पिता।
निधत्स इति भो अग्ने त्वम् अर्काय देवान्तःपातिने सूर्याय हुतम् हविः निधत्से निधानरूपतया ददासि। अतः सः अर्कः पर्जन्यसन् अभिवर्षति ततः वर्षणात् अन्नानि उत्पद्यन्ते तेभ्यः अन्नेभ्यः प्रजाः जायन्ते तेन कारणेन जगतः पितासि। पातीति पिता इति व्युत्पत्त्या साधारण रक्षकस्यापि पितृत्वं न केवलं जनकस्यैवेति भावः। अत एवोक्तं नीतौ अन्नदाता भयत्राता यश्च कन्यां प्रयच्छति जनिता च उपनेता च पञ्चैते पितरस्मृताः इति।
अन्तश्चरोऽसि भूतानां तानि त्वत्तो भवन्ति च ततो जीवितभूतस्त्वं जगतः प्राणदोऽसि च।
अन्तरिति भो अग्ने त्वं भूतानां प्राणिनां अन्तश्चरः अन्तर्व्यापी असि। तानि भूतानि च त्वत्तः भवन्ति उत्पद्यन्ते। ततः उभयकारणतः त्वं जीवितानि प्राणितानि भूतानि येन तथोक्तः जगतः प्राणदश्च असि। अग्नेः अन्तराधेयतया एव प्राणिनां जीवनम् अतः जीवितभूतत्वम्। अग्नेरेव जगदुत्पादकतया प्राणदत्वं च अर्थात् सिद्धम्। उत्तरवाक्यद्वयस्य पूर्ववाक्यद्वयान्तर्गतत्वात् पृथक्त्वेन ग्रहणं व्यर्थमिति चेत् न। अन्तर्व्यापित्वजीवितभूतत्वयोः साहचर्यप्रयुक्तं न सामानाधिकरण्यम्। यस्य यत्र यत्र अन्तर्भावित्वं तस्य तत्र तत्र जीवितभूतत्वम् इति नियमाभावात्। न च वह्निसम्बन्धावच्छिन्नत्वेन तयोः सामानाधिकरण्यम् इति वाच्यम्। वह्निसम्बन्धावच्छिन्नत्वम् अन्तर्व्याप्ते तप्तायः पिण्डे न तत्र जीवितभूतत्वम्। अतः वह्निसम्बन्धावच्छिन्नत्वेनापि समानाधिकरणतानियमः कर्तुम् न शक्यते। उत्पादकत्वप्राणदत्वयोः साहचर्यनियमाभावात् कुलालस्य सत्यपि उत्पादकत्वे प्राणदत्वं नास्ति। घटम् उत्पादयतोऽपि कुलालस्य न जीवनदातृत्वशक्तिः इत्यलं विवादेन। अतिगहनः अयं विवादः। जगतः इति षष्ठी प्राणान्वयात् न तु दानान्वयात्। अन्यथा कर्मणायमभिप्रैति ससम्प्रदानम् इति सम्प्रदानत्वात् चतुर्थी प्रसज्येत इति। ननु जगतः इत्यस्य प्राणान्वये केवलसम्बन्धवाचकत्वेन तस्य नित्यसम्प्रदानविवक्षा केन निरास्यते। एवञ्च सम्प्रदानान्तरं मृग्यं स्यात्। अथवा जगत्सम्बन्धिनां प्राणानां दानं जगत्सम्प्रदानकमेवेति अर्थात् सम्प्रदानसिद्धिः।
जगतः सकलस्यास्य त्वमेकोऽस्युपकारकृत् कार्योपपादने तत्र त्वत्तोऽन्यः कः प्रगल्भते।
जगत इति भो अग्ने त्वम् एक एव अस्य सकलस्य जगतः उपकारकृत् हितकृत् असि। अत एव अस्माकं तत्र कार्योपपादने त्वत्तः अन्यः। अन्यारात् इति पञ्चमी। कः प्रगल्भते समर्थः भवेत् न कोऽपीत्यर्थः।
अमीषां सुरसङ्घानां त्वमेकोऽर्थसमर्थने विपत्तिरपि संश्लाघ्य उपकारव्रतिनो नल।
अमीषामिति भो अनला अमीषाम सुरसंघानाम देवसमूहानाम अस्मदादीनाम अर्थसमर्थने कार्यसाधने विषये त्वं एक एव समर्थः असि एवं विधोपि अहम् विपन्नः किं करोमीत्याह विपत्तिरिति उपकारेषु परहितेषु व्रतिनः नियमवतः पुरुषस्य विपत्तिरपि सम्यक् श्लाघ्या भवति अतः विपन्नोऽपि स्तूयस इति भावः सम्प्रति उपायम् उपदिशति
देवी भागीरथी पूर्वम् भक्त्यास्माभिः प्रतोषिता निमज्जतस्तवोदीर्णम् तापम् निर्वापयिष्यति
देवीति पूर्वम् अस्माभिः भक्त्या प्रतोषिता भागीरथी देवी निमज्जतः स्नानम् कुर्वतः तव उदीर्णम् अत्युल्बणम् तापम् निर्वापयिष्यति प्रशामयिष्यतीत्यर्थः
गङ्गाम् तद्गच्छ माकार्षीः विलम्बम् हव्यवाहन कार्येष्वश्यकार्येषु सिद्धये क्षिप्रकारिता
गङ्गामिति भो हव्यवाहन तत् तस्मात् गङ्गाम् देवीम् गच्छ याहि विलम्बम् माकार्षीः मा कुरु नमाङ्योगे इत्यडागमनिषेधः तथा हि अवश्यकार्येषु अवश्यकर्तव्येषु कार्येषु सिद्धये क्षिप्रकारिता अनलसत्वम् उचिता इति शेषः तस्मात् त्वया शीघ्रमेव गन्तव्यमिति भावः ननु शक्तेनापि मया दुर्वाह्यम् शैवम् तेजः गङ्गा कथम् धरिष्यतीत्याशङ्क्य आह
शम्भोरम्भो मयि मूर्तिः सैव देवी सुरापगा त्वत्तस्मरद्विषो बीजम् दुर्धरम् धारयिष्यति
शम्भोरिति भो अग्ने शम्भोः अम्भोमयी जलमयी मूर्तिः देवी सा सुरापगा एव गङ्गा एव दुर्धरम् स्मरद्विषः हरस्य बीजम् तेजः त्वत्तः आदाय धारयिष्यति धरिष्यतीत्यर्थः शुक्रम् तेजोरेतसी च बीजवीर्येन्द्रियाणि च इत्यमरः
इत्युदीर्य सुनासीरः विरराम सचानलः तद्विसृष्टस्तमापृच्छ्य प्रतस्थे स्वर्धुनीमभि
इतीति इत्येवम् भूतम् उदीर्य उक्त्वा सुनासीरः इन्द्रः विरराम तूष्णीम् तस्थौ इत्यर्थः विररामेति व्याङ्परिभ्योरमः इति परस्मैपदम् वृद्धश्रवाः सुनासीरः इत्यमरः सः अनलश्च अग्निस्तु तद्विसृष्टः तेन सुनासीरेण विसृष्टः त्यक्तः गन्तुम् अनुमतः इत्यर्थः तादृशः सन् तम् इन्द्रम् आपृच्छ्य अहम् गच्छामीति आज्ञाम् आदाय स्वर्धुनीमभि गङ्गामभि प्रतस्थे प्रस्थितवान्
हिरण्यरेतसातेन देवी स्वर्गतरंगिणी तीर्णाध्वना प्रपेदे सा निःशेषक्लेशनाशिनी।
हिरण्येति तेन प्रस्थितेन तीर्णाध्वना अवगाहित मार्गेण हिरण्यरेतसा वह्निना निःशेषक्लेशनाशिनी। निःशेषाः ये क्लेशाः पञ्चक्लेशाः तेषां नाशिनी मुक्तिदायिनीत्यर्थः। सा प्रसिद्धा स्वर्गतरङ्गिणी स्वर्णदी देवी प्रपेदे प्राप्ता। कर्मणि लिट्।
स्वर्गारोहण निःश्रेणिः मोक्षमार्गाधिदेवता उदार दुरितोद्गार हारिणी दुर्गतारिणी।
स्वर्गेति स्वर्गे यदारोहणं तस्य निःश्रेणिः सोपानपंक्तिः। अस्याम् स्नानमात्रेणैव स्वर्गम् आरोहन्तीत्यर्थः। पुनश्च मोक्षमार्गस्य मुक्तिपथस्य अधिदेवता याम् प्रसाद्य मुक्तिम् आप्नुवन्तीत्यर्थः। पुनश्च उदाराणाम् उच्चैस्तराणाम् दुरितानाम् पापानाम् उद्गारस्य समूहस्य हारिणी विनाशिनीत्यर्थः। पुनश्च तरन्त्यनया सा तारणी दुर्गस्य संसाररूपस्य तारणी संसारार्णवम् अनया तरन्तीत्यर्थः। तारणीति निजन्तात् तरतेः करणाधिकरणयोश्च इति करणे ल्युट्। ततः टिड्ढाणै इति ङीप्। तारिणी इति पाठे तारयति लोकान् सा तारिणी दुर्गात् तारिणी। अत्र निनौ कृते रुन्नेभ्यः इति ङीप्।
महेश्वर जटाजूट वासिनी पापनाशिनी सरागान्वय निर्वाणकारिणी धर्मधारिणी।
महेश्वरेति पुनश्च महेश्वरस्य जटाजूटे वासिनी वासवती पुनश्च पापनाशिनी। अत्रापि तारिणीवत् प्रत्ययव्यवस्था। पुनश्च सरागस्य विषयलिप्सोः अन्वयस्य वंशस्यापि निर्वाणकारिणी मोक्षकारिणी। किं पुनः विमुक्तानाम् इत्यर्थः। धर्मं धारयतीति धर्मधारिणी आत्मसम्बन्धेन जन्तून् धर्मवतः कुर्वन्तीत्यर्थः।